वच पतितानां पावनेभ्यो वैष्णवेभ्यो नमो महावदन्नाय कृष्णप्रेमप्रदाय कृष्णाय कृष्णचैतन्य नाम्ने गौरकिशे गुरवे गौरचन्द्राय राधिकाय सदालये कृष्णाय कृष्णभक्ताय सद्भक्ताय भक्त्याभिहीनाय पराधरक्षये काश्यपामादितङ्गमपि कृपामयि त्वां शरणं प्रपन्नाय अङ्गश्यामलिं शटाभिरपितो मन्दीकृतेन्दीवरं जगञ्जाबुदरोचि साङ्गितमपट्टम्बरस्य वृन्दारण्यनिवासिनं सदिनशब्दामाभिरामोदरं